ओम नमो भगवते वासुदेवाय। अथैकोनत्रिंशोऽध्यायः। उद्धव उवाच, सुतुश्चरामि मां मन्ये योगचर्यामनात्मनः, यथाञ्जसा पुमान् सिद्ध्येत् तन्मे ब्रूह्यञ्जसाच्युत। प्रायसः पुण्डरीकाक्ष युञ्जन्तो योगिनो मनः, विषीदन्त्यसमाधानान् मनो निग्रहकर्षिताः। अथात आनन्ददुःखं पदाम्बुजं हंसाश्रयेरन्नरविन्दलोचन, सुखं नु विश्वेश्वरयोगकर्मभिस्त्वन्माययामि विहता न मानिनः। किञ्चित्रमच्युत तवैतदशेषबन्धो दासेष्वनन्यशरणेषु यदात्मसात्त्वम्। यो रोचयत्सह मृगैः स्वयमीश्वराणां श्रीमत्किरीटतटपीडितपादपीठः। तं त्वाखिलात्मदयितेश्वरमाश्रितानां सर्वार्थदं स्वकृतविद् विसृजेत को नु। को वा भजेत् किमपि विस्मृतयेऽनुभूत्यै, किं वा भवेन्न तव पादरजोजुषां नः। नैवोपयन्त्यपचितिं कवयस्तवेश, ब्रह्मायुषापि कृतमृद्धमुदः स्मरन्तः। योऽन्तर्बहिस्तनुभृतामशुभं विधुन्वन्नाचार्य चैत्यवपुषा स्वगतिं व्यनक्ति। श्रीशुक उवाच, इत्युद्धवेनात्यनुरक्तचेतसा पृष्टो जगत्क्रीडनकः स्वशक्तिभिः। गृहीतमूर्तित्रय ईश्वरेश्वरो जगादसप्रेम मनोहरस्मितः। श्रीभगवानुवाच, हन्तते कथयिष्यामि मम धर्मान् सुमङ्गलान्, यान् श्रद्धयाचरन् मर्त्यो मृत्युं जयति दुर्जयम्। कुर्यात् सर्वाणि कर्माणि मदर्थं शनकैः स्मरन्, मय्यर्पितमनश्चित्तो मद्धर्मात्ममनोरतिः। देशान् पुण्यानाश्रयेत मद्भक्तैः साधुभिः श्रितान्, देवासुरमनुष्येषु मद्भक्ताचरितानि च। पृथक् सत्रेण वा मह्यं पर्वयात्रा महोत्सवान्, कारयेत् गीतनृत्याद्यैर्महाराजविभूतिभिः। मामेव सर्वभूतेषु बहिरन्तरपावृतम्, ईक्षेतात्मनि चात्मानं यथा खममलाशयः। इति सर्वाणि भूतानि मद्भावेन महाद्युते, सभाजयन्मन्यमानो ज्ञानं केवलमाश्रितः। ब्राह्मणे पुल्कसेस्तेने ब्रह्मण्येऽर्के स्फुलिङ्गके, अक्रूरे क्रूरके चैव समदृक्पण्डितो मतः। नरेष्वभीक्ष्णं मद्भावं पुंसो भावयतो चिरात्, स्पर्धासूयातिरस्कारा साहङ्कारा वियन्तिः। विसृज्य स्मयमानान् स्वान् दृशं व्रीडां च दैहिकीम्, प्रणमेद्दण्डवद्भूमा वाश्वचाण्डालगोखरम्। यावत् सर्वेषु भूतेषु मद्भावो नोपजायते, तावदेवमुपासीत वाङ्मनः कायवृत्तिभिः। सर्वं ब्रह्मात्मकं तस्य विद्ययात्मनीषया, परिपश्यन्नु परमेत् सर्वतो मुक्तसंशयः। अयं हि सर्वकल्पानां सधृतिनो मतो मम, मद्भावः सर्वभूतेषु मनोवाक्कायवृत्तिभिः। नयं गोपक्रमेध्वंसो मद्धर्मस्योद्भवाण्वपि, मया व्यवसित सम्यग् निर्गुणत्वादनाशिषः। यो यो मयि परे धर्मः कल्प्यते निष्फलाय चेत्, तदा यासो निरर्थः स्यात् भयादेरिव सत्तम। एषा बुद्धिमतां बुद्धिर्मनीषा च मनीषिणां, यत्सत्यमनृतेनेह मर्त्येनाप्नोति मामृतम्। एष तेऽपि हितः कृत्स्नो ब्रह्मवादस्य सङ्ग्रहः, समासव्यासविधिना देवानामपि दुर्गमः। अभीक्ष्णशस्ते गदितं ज्ञानं विस्पष्टयुक्तिमत्, एतद्विज्ञाय मुच्येत पुरुषो नष्ट संशयः। सुविविक्तं तव प्रश्नं मयैतदपि धारयेत्, सनातनं ब्रह्मगुह्यं परं ब्रह्माधिगच्छति। य एतन्मम भक्तेषु सम्प्रदद्यात् सुपुष्कलं, तस्याहं ब्रह्मदायस्य ददाम्यात्मानमात्मना। य एतत् समधीत पवित्रं परमं शुचि, सपूयेता हरहर्मां ज्ञानदीपेन दर्शयन्। य एतत् श्रद्धया नित्यमव्यग्रह शृणुयान्नरः, मयि भक्तिं परां कुर्वन् कर्मभिर्न सबध्यते। अप्युद्धव त्वया ब्रह्म सखे समवधारितम्, अपि ते विगतो मोहः शोकश्चासौ मनोभवः। नैतत्त्वया दाम्भिकाय नास्तिकाय शठाय च अशुश्रूषोरभक्ताय दुर्विनीताय दीयताम्। एतैर्दोषैर्विहीनाय ब्रह्मण्याय प्रियाय च साधवेषु च ये ब्रूयात् भक्ति स्याच्छूद्रयोषिताम्। नैतद्विज्ञाय जिज्ञासोर्ज्ञातव्यमवशिष्यते, पीत्वा पीयूषममृतं पातव्यं नावशिष्यते। ज्ञाने कर्मणि योगे च वार्तायां दण्डधारणे यावानर्थो नृणां तात तावान् स्तेहं चतुर्विधः। मर्त्यो यदा त्यक्त समस्त कर्मा निवेदितात्मा विचिकीर्षितो मे तदा मृतत्वं प्रतिपद्यमानो मयात्मभूयाय च कल्पते वै। श्रीशुक उवाच स एवमादर्शितयोगमार्गसदोत्तमश्लोकवचो निशम्य बद्धाञ्जलिः प्रीत्युपरुद्धकण्ठो न किञ्चिदूचेषु परिप्लुताक्षः। विष्टभ्यचित्तं प्रणयावघूर्णं धैर्येण राजन् बहुमन्यमानः कृताञ्जलिः प्राह यदुप्रवीरं शीर्षणा स्पृशन् तच्चरणारविन्दम्। उद्धव उवाच विद्रावितो मोहमहान्धकारो याश्रितो मे तव सन्निधानात् विभावसो किं नु समीपगत्य शीतं तमोभिः प्रभवन्त्यजाद्य प्रत्यर्पितो मे भवतानुकम्पिना भृत्याय विज्ञानमयः प्रदीपः। हित्वा कृतज्ञस्तव पादमूलं कोऽन्यत्समीयाच्छरणं त्वदीयम्। विकृणश्च मे सुदृढः स्नेहपाशो दासार्हवृष्ट्यन्धकसात्वतेषु प्रसारितसृष्टिविवृद्धये त्वया स्वमायया ह्यात्मसुबोधहेतिना। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमां यथा त्वच्चरणां भोजे रतिः स्यादनपायिनी। श्रीभगवानुवाच गच्छोद्धवमयादिष्टो बदर्याख्यं ममाश्रमं तत्र मत्पादतीर्थोदे स्नानोपस्पर्शनैः शुचिः। ईक्षयालकनन्दाया विधूताशेषकल्मषः वसानो वल्कलान्यङ्गवन्यभुक् सुखनिःस्पृहः। तितिक्षुर्द्वन्द्वमात्राणां सुशीलः संयतेन्द्रियः शान्तः समाहितधिया ज्ञानविज्ञानसंयुतः। मत्तोऽनुशिक्षितं यत्ते विविक्तमनुभावयन् मय्यावेशितवाक्चित्तो मद्धर्मनिरतो भव। अतिव्रजगतिस्तिस्रो मामेष्यसि ततः परम्। श्रीशुक उवाच स एव मुक्तो हरिमेधसोद्धवः प्रदक्षिणं तं परिसृत्य पादयोः शिरो निधाया शुकलाभिराद्रधीर्न्यषिञ्च दद्वन्द्वपरोऽप्यपक्रमे। सुदुश्चजस्नेहवियोगकातरो न शक्नुवंस्तं परिहातुमातुरः। कृच्छ्रम्ययौ मूर्धनि भर्तृपादुके बिभ्रन् नमस्कृत्य ययौ पुनः पुनः। ततस्तमन्तर्हृदि सन्निवेश्य गतो महाभागवतो विशालां यथोपदिष्टां जगदेकबन्धुना तपः समास्थाय हरेरगाद् गतिं। जयेतदानन्दसमुद्रसम्भृतं ज्ञानामृतं भागवताय भाषितं कृष्णेन योगेश्वरसेविताङ्घ्रिणा सच्छ्रद्धया सेव्य जगद्विमुच्यते। भवभयमपहन्तुं ज्ञानविज्ञानसारं निगमकृदुपजर्रे भृङ्गवद्वेदसारम्। अमृतमुदधितश्चापाययत् भृत्यवर्गान् पुरुषमृषभमाद्यं कृष्णसंज्ञं नतोऽस्मि। ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् एकादशस्कन्धे एकोनत्रिंशोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमां यथा त्वच्चरणां भोजे रतिः स्यादनपायिनी।